इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी आदौ मुख्य वार्ताः पूर्व प्रधानमन्त्रिणः डॉ मनमोहन सिंहस्य अन्तिम संस्कारः दिल्ल्याः निगम बोध घाटे पूर्ण राजकीय सम्मानेन सम्पन्नः राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा अन्य गणमान्य जनैः विभिन्न राजनीतिक नेतृभिः च डॉ सिंहाय श्रद्धांजलिः समर्पिता गृहमन्त्रालयेन प्रतिपादितं यत् केन्द्र प्रशासनं डॉ मनमोहन सिंहस्य स्मारकाय स्थानावण्टनं करिष्यति महाराष्ट्रस्य पालघरे रेलस्थात्रं निकषा रेलयानेन संघटनात् जनौ मृतौ अपि च ऋतुविभागेन अद्य मध्यप्रदेशे झंझावातः ओलावृष्टेः अनुमानः अभिव्यक्तः पूर्व प्रधानमन्त्रिणः डॉ मनमोहन सिंहाय नवदिल्ल्यां निगमबोधघाटस्थले पूर्णराजकीय सम्मानेन श्रद्धांजलिः समर्पिता सिख ग्रन्थिभिः डॉ मनमोहन सिंहस्य परिजनैश्च अन्तिम संस्कारात् प्राक् गुरवाणी पाठं कृतवन्तः औपचारिक सम्मानानन्तरं राष्ट्रपतिना द्रौपदी मुर्मू उपराष्ट्रपतिना जगदीप धनखडेन प्रधानमन्त्रिणा नरेन्द्र मोदिना केन्द्रीय मन्त्रिणा राजनाथ सिंहेन अमित शाहेन जगत प्रकाश नड्डा लोकसभा अध्यक्षेण ओम बिडला वर्येण डॉ सिंहाय श्रद्धा कुसुमानि समर्पितानि एतदतिरिच्य कांग्रेस अध्यक्षेण मल्लिकार्जुन खड़गे कांग्रेस गांधिनं सोनिया गांधिनं राहुल गांधिनं समेत्य कांग्रेस दलीय नेतृभिः तस्मै श्रद्धांजलिः अर्पिता अस्मदीय वार्ताहरेण निगदितं यत् थलसेना प्रमुखेण जनरल उपेन्द्र द्विवेदी नौसेना प्रमुखेण अमरप्रीत सिंह भूटान नरेशेन जिग्मे खेसर नामग्याल वांगचुक मॉरिशस विदेशमन्त्रिणा धनंजय रामफलेनापि डॉ सिंहाय श्रद्धांजलिः समर्पिता प्रधानमन्त्रिणः मनमोहन सिंहस्य बृहस्पतिवासरं नवदिल्ल्यां निधनं जातम् असौ द्विनवतिः वर्षीयः आसीत् अथ दीर्घसमयात् च रुग्णः आसीत् गृहमन्त्रालयेन प्रतिपादितं यत् प्रशासनं पूर्व प्रधानमन्त्रिणः डॉ मनमोहन सिंहाय स्मारकं विनिर्मातुं भूमिः आवंटयिष्यति एकस्मिन् वक्तव्ये मन्त्रालयेनोक्तं यत् प्रशासनं ह्यः प्रकरणेऽस्मिन् कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे पक्षतः अनुरोधः अधिगतः मन्त्रालयेन प्रकाशितं यत् केन्द्रीय मन्त्रिमण्डलस्य उपवेशनानन्तरं गृहमन्त्रिणा अमितशाहेन सिरी खड़गे च डॉ मनमोहन सिंहस्य परिवारं एतदर्थं संसूचितम् भाजपेति दलस्य सांसदः प्रवक्ता च सुधांशु त्रिवेदी उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वस्य भाजपा एनडीए संयुतेः सर्वकारः देशस्य आर्थिक विकासाय आधारशिलां संस्थापकं पूर्व प्रधानमन्त्रिणं डॉ मनमोहन सिंहम् उचित सम्मानं प्रदानाय पूर्णतया प्रतिबद्धः अस्ति डॉ सिंहस्य स्मारकस्थलाय स्थानावण्डनस्य प्रकरणे श्रीत्रिवेदिना उक्तं यत् केन्द्रीय मन्त्रिमण्डलेन ह्यः जाते उपवेशने निर्णयः कृतः यत् पूर्व प्रधानमन्त्रिणः स्मृतौ एकस्य स्मारकस्य निर्माणं भविष्यति सूचनैषा कांग्रेसदलाय अपि प्रदत्तास्ति
गृहमंत्री आदरणीय अमित शाह जी ने कांग्रेस के अध्यक्ष आदरणीय मल्लिकार्जुन खड़गे जी को यह कन्वे किया कि सरकार स्मारक बनाने के लिए निर्णय ले चुकी है और अब जमीन का अधिग्रहण ट्रस्ट का बनना और जमीन का ट्रांसफर जैसी प्रक्रियाएं पूर्ण होने के बाद जो भी समय लगेगा उसके द्वारा यथोचित और यथाशीघ्र यह कार्य किया जाएगा
महाराष्ट्रे गतरात्रौ पालघर रेलस्थात्रं निकषा रेलयानेन संघटनात् जनद्वयं मृतम् एकः अन्यश्च गम्भीररूपेण व्रणितो जातः त्रयः एव जनाः यदा रेलयात्रापथं पारितुम् उद्यत्ताः आसन् तदा एव जयपुर सुपरफास्ट एक्सप्रेस रेलयानं पट्टिकोपरि समागतम् मृतकौ जनौ भ्रातारौ आस्ताम् तृतीयः जनः उपचाराधीनो वर्तते संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशेऽपि उपलब्धो भविष्यति। भारतीय ऋतु विज्ञान विभागेन मध्यप्रदेशे ओलावृष्टिः अनुमानः अभिव्यक्तः। पंजाब हरियाणा चंडीगढ़ उत्तरप्रदेश राजस्थाने च वृष्टेः संभावना प्रकटिता। ऋतु विभागेन विदर्भ महाराष्ट्र गुजरात सदृशेषु क्षेत्रेषु यथावत स्थितिः अनुमानिता। राजस्थान हिमाचल प्रदेश पंजाब हरियाणा चंडीगढ़ उत्तरप्रदेशे च आगामि दिवसेषु भीषण कुज्झटिका अनुमानिता। हिमाचल प्रदेशे बहुषु क्षेत्रेषु विगत चतुर्विंशति होरासु हिमपातः वृष्टिः च संजायते। किन्नौर जनपदस्य लोकप्रिय पर्यटनस्थले चितकुले बृहन्मात्रिक हिमपातः संजातः। लाहौल स्पीति इत्यस्य क्षेत्रस्य उच्चतम पर्वतीय स्थलेषु भीषण हिमपातः जातः। एतदतिरिच्य चम्बा जनपदस्य जनजातीय क्षेत्रयोः पांगी भरमौर इत्येतयोः भीषण हिमपातः आकलितः। प्रशासनेन जनैः अनावश्यक यात्रा नैव करणाय अध्यर्थिताः। अखिल उत्तर भारते शीतलहर्याः प्रभावः दरीदृश्यते। उत्तराखण्डस्य पर्वतीय क्षेत्रेषु बहुषु स्थानेषु हिमपातः सूचितः। अस्मदीय वार्ताहरेण सूचितः यत् अत्यधिक उच्चतम पर्वतीय क्षेत्रेषु भीषण हिमपातः संजातः। राष्ट्रिय महिला आयोगस्य अध्यक्षेण विजया रहाटकरेण चेन्नई नगरे अन्ना विश्वविद्यालये कथित यौनोत्पीडन घटनायाः अन्वीक्षणाय समितिरेका संरचिता। आयोगेन एकस्मिन् वक्तव्ये सूचितं यत् द्विसदस्यात्मिकायाः समित्याः अस्याः संरचनं परिस्थितिनाम् अन्वीक्षणाय संजातम्। समितिरेष प्रकरणेऽस्मिन् सम्बद्ध अधिकारिभिः पीडितैः पारिवारिकजनैः मित्रैः प्रशासनेतरधिकारिभिस्साकं विचारविमर्शोऽपि विधास्यति। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य एकोनत्रिंशत् दिनांके श्वः आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे जनैः सह स्वविचारान् विनिमयीकरिष्यति। इदं मासिक रेडियो कार्यक्रमस्य 17.1% संस्करणं भविष्यति। कार्यक्रमस्य प्रसारणम् आकाशवाण्यां दूरदर्शने एआईआर न्यूज वेब फलके न्यूज ऑन एआईआर इति दूरभाषतन्त्रांशे च भविष्यति। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालयानां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। हिन्दी प्रसारणानन्तरं क्षेत्रीय भाषासु च अस्य कार्यक्रमस्य प्रसारणं भविष्यति। भारतीय सैन्यदलम् अद्य अष्टमीय बटालियन स्तरीय संयुक्त सैन्य अभ्यासे सूर्यकिरण इति नामधेये भागं ग्रहीतुं प्रस्थितम्। दलेऽस्मिन् चतुस्त्रिंशदुत्तर त्रिशत् सैनिकाः समाविष्टाः सन्ति। अभ्यासस्यास्य आयोजनं नेपालस्य सलझण्डे नगरे दिसम्बर मासस्य अन्तिम दिवसादारभ्य आगामि मासे जनवरी त्रयोदश दिनांकं यावत् प्रचलिष्यति। रक्षामन्त्रालयेन वक्तव्ये एकस्मिन् प्रतिपादितं यत् अभ्यासोऽयं वनक्षेत्र पर्वतेषु आतंकरोधि गतिविधयः अपाकर्तुं पूर्ण प्रतिबद्धः भविष्यति। मन्त्रालयेनोक्तं यत् अभ्यासः अयं भारत नेपालयोर्मध्ये मित्रता विश्वास सांस्कृतिक सम्बन्धाः च दृढयिष्यति। भारतेन 23,000-24,000 वर्षयोः अधुना पर्यन्तं सर्वाधिकं कृष्णाङ्गारोत्पादनं दृष्टम्। 23,000-24,000 वर्षयोः अखिले हि भारते कृष्णाङ्गारस्य उत्पादनं 97.9% मिलियन टन परिमितम् आसीत्। तत्रैव विगतवर्षे 93.8% मिलियन टन परिमितम् आसीत्, यस्मिन् प्रायः 11.17% यावत् वृद्धिः संजाता। कृष्णाङ्गार मन्त्रालयेन सूचितं यत् देशेन अस्य मासस्य 15 दिनांकपर्यन्तं देशे प्रायः 63.9 मेट्रिकटन परिमितं यावत् कृष्णाङ्गारस्य आपूर्तिः कृता अस्ति। मेलबर्न नगरे ऑस्ट्रेलिया देशेन साकं बोर्डर गावस्कर ट्रॉफी इत्यस्य चतुर्थ क्रिकेट अभ्यास स्पर्धायाः तृतीय दिवसे भारतेन धावनांकः 300 समर्जितः इति।